इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां प्रायः 11,000 कोटिरूप्यकाणां द्वयोः राष्ट्रिय राजमार्ग परियोजनयोः उद्घाटनं करिष्यति। एतयोः परियोजनयोः द्वारिका एक्सप्रेसवे दिल्लीखण्डः सहैव नगरीय विस्तारमार्गस्य द्वितीयः भागः इत्येतौ सम्मिलितौ स्तः। प्रधानमन्त्री कार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् एताः परियोजनाः राजधान्यां जनसम्मर्दस्य अपचयार्थं सहैव यातायातसौविध्याय च विकसिताः सन्ति। एतासाम् उद्देश्यं तावत् दिल्ल्याः पार्श्ववर्तिक्षेत्रेषु यातायातसौख्यं सहैव यात्रायां समयपरिरक्षणं यातायातावरोधस्य च समाधानम् इत्येतानि सन्ति। अस्मिन् अवसरे प्रधानमन्त्री एकां जनसभाम् अपि सम्बोधयिष्यति। भारतस्य अन्तरिक्षनायकस्य दलनायकस्य च शुभांशु शुक्लस्य अद्य प्रातःकाले दिल्ली अन्ताराष्ट्रियविमानस्थानके स्वागतम् अभवत्। विमानस्थानके केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः, दिल्ल्याः मुख्यमन्त्री रेखागुप्ता, इसरो अध्यक्षः डॉ वी नारायणन् च तस्य स्वागतं कृतवन्तः। तस्य स्वागताय तस्य पत्नी पुत्रः अपि उपस्थितौ आस्ताम्। अवधेयं वर्तते यत् अन्ताराष्ट्रिय अन्तरिक्षस्थानकस्य भ्रमणं कृत्वा प्रथमः भारतीयत्वेन इतिहासं रचयित्वा शुभांशु शुक्लः स्वस्य अभूतपूर्व अभियानस्य अनन्तरं शारीरिक स्वास्थ्याय अमेरिकादेशे पुनर्वासे आसीत्। अद्य नवदिल्ल्यां भारतीय जनता पार्टीति दलस्य मुख्यालये उपराष्ट्रपति निर्वाचनाय प्रत्याशी चयनाय भाजपा संसदीय दलस्य उपवेशनं भवितुं शक्नोति। दलस्य सर्वे संसदीय सदस्याः सभायाम् उपस्थिताः भविष्यन्ति। अस्य मासस्य षष्ठे दिनांके राष्ट्रिय लोकतांत्रिक गठबंधनस्य नेतारः सर्वसम्मत्या प्रधानमन्त्रिणं नरेन्द्रमोदिनं भाजपाध्यक्षं जगत्प्रकाश नड्डा इत्यमुं च एनडीए पक्षस्य प्रत्याशी पदाय सदस्यम् अन्तिमरूपेण चयनाय अधिकारः प्रदत्तवन्तः। भारतेन अलास्कायाम् अमेरिकी राष्ट्रपतिनः डोनाल्ड ट्रम्पस्य रूसस्य राष्ट्रपतिनः व्लादिमीर पुटिन इत्युभयोः मध्ये सम्पन्नस्य शिखरसम्मेलनस्य स्वागतं कृतम्। एकस्मिन् वक्तव्ये भारतस्य विदेशमन्त्रालयेन शान्तिवार्तायाः प्रशंसा कृता। सहैव प्रोक्तं यत् संवादः कूटनीतिश्च समुदयस्य मार्गः प्रशस्तीकुरुत। मन्त्रालयेन अग्रे कथितं यत् विश्वेन यूक्रेन संघर्षस्य विरामः आकांक्ष्यते। अमेरिकी राष्ट्रपतिना प्रामिष्टं यत् रूस यूक्रेन देशौ युद्ध समापनाय सन्धि विषये विचारयेताम्। शुक्रवासरे अलास्कायां व्लादिमीर पुटिन इत्यमुना सह घण्टात्रयात्मकम् उपवेशनं विधाय डोनाल्ड ट्रम्पः एतत् प्रख्यापितवान्। यूक्रेनस्य राष्ट्रपतिना व्लादिमीर जेलेंस्की इत्येषः प्रोक्तवान् यत् सः सोमवासरे वाशिंगटन नगरे ट्रम्पेन सह मिलिष्यति। विदेशमन्त्री डॉ एस जयशंकरः ह्यः नवदिल्ल्यां दक्षिण कोरिया देशस्य स्वकीयेन समकक्षेण चो शून इत्यमुना सह द्विपक्षीयोपवेशनं साधितवान्। अस्य वर्षस्य अप्रैल मासे पहलगामे दुरापन्नस्य आतंकवादक्रमणस्य दक्षिण कोरिया पक्षतः कृतनिन्दा सन्दर्भे विदेशमन्त्रिणा डॉ एस जयशंकरेण तत्रत्य विदेशमन्त्रिणे चो शून इत्यस्मै कार्तज्ञं प्रकटितम्। ह्यः नवदिल्ल्यां श्रीशून इत्यमुना सहोपवेशने डॉ जयशंकरः कोरियायाः राष्ट्रिय मुक्ति दिवसम् आलक्ष्य उद्घाटन भाषणे दक्षिण कोरियायाः विदेशमन्त्रिणे शुभकामनां प्राकल्पयत्। अवसरेऽस्मिन् तयोः मध्ये रक्षा सुरक्षा व्यापार अर्थनीति जनसंवादाश्च समेत्य बहवः विषयाः विचारिताः।
The day after your national day and our national day, I think is something again of says a lot really about the value we attach to the relationship. And your visit, I think in many ways comes at a very important time. It's the 10th anniversary of our special strategic partnership.
Iti Vartaha.